మూర్ఛితా రతిః ఇత్యుక్తం సంప్రతి తద్వృత్తాంతమేవాహ.
అథ మోహ పరాయణా సతీ వివశా కామవధూర్విబోధితా విధినా ప్రతిపాదయిష్యత నవ వైధవ్యమసహ్య వేదనం.
అథేతి అథ అనంతరం మోహో మూర్ఛా పరం అయనం ఆశ్రయో యస్యాః సా మోహపరాయణా మోహైకశరణా సతీ. పరాయణం అభిప్రేతే తత్పరే పరమాశ్రయే ఇతి యాదవః. వివశా మూఢత్వాత్ నిశ్చేష్టా కామవధూః రతిః అసహ్యా దుస్సహా వేదనా యస్మిన్ తత్తథోక్తం విధవాయాః గతభర్తృకాయాః భావః వైధవ్యం నవంచ తద్వైధవ్యం చ ఇతి నవవైధవ్యం నవగ్రహణం దుస్సహత్వద్యోతనార్థం. ప్రతిపాదయిష్యత అనుభావయిష్యత క్రియార్థక్రియాయాం లృట్ విధినా దైవేన విధిర్విధానే దైవే చ ఇత్యమరః. విబోధిత వైధవ్యానుఫలోయం విధిః ఇతి భావః. అస్మిన్ సర్గే వియోగినీ వృత్తాని విషమే ససజా గురుః సమే సభరా లోథ గురుర్వియోగిని ఇతి లక్షణాత్.
అవధాన పరే చకారసా ప్రళయాంతోన్మిషితే విలోచనే న వివేద తయోర తృప్తయోః ప్రియమత్యంత విలుప్త దర్శనం.
అవేతి సా రతిః ప్రళయాంతే మూర్ఛావసానే ప్రళయో నష్టచేష్టతా ఇత్యమరః. ఉన్మిషితే ఉన్మీలితే విలోచనే అవధానం పరం ప్రధానం యయోః తే అవధానపరే దిదృక్షయావహితే చకార. ద్రష్టవ్యాభావాత్తు న వివేద ఇత్యాహ. నేతి ప్రియం కామం అతృప్తయోః తృప్తిం నగతయోః నిత్యదిదృక్షమాణయోరిత్యర్థః. తయోర్లోచనయోః దర్శనక్రియాపేక్షయా సంబంధే షష్ఠీ. అత్యంత విలుప్తం దర్శనం స్వలోచనయోః కరణయోః యస్య కర్మభూతస్య తం అత్యంత విలుప్త దర్శనం సంతం న వివేద న జ్ఞాతవతి. ప్రియనాశా పరిజ్ఞానాత్ దిదృక్షాం చక్రే ఇతి తాత్పర్యార్థః.
అయి జీవితనాథ జీవసీతి అభిధాయోత్థితయా తయా పురః దదృశే పురుషాకృతిక్షితౌ హరకోపానలభస్మ కేవలం.
అయీతి అయీతి ప్రశ్నే అయి ప్రశ్న అనునయయోః ఇతి విశ్వః. అయి జీవితనాథ జీవసి ప్రాణిషి కచ్చిత్ ఇతి అభిధాయ ఉత్థితయా తయా రత్యా పురః అగ్రే క్షితౌ పురుషస్యాకృతిరివ ఆకృతిర్యస్య తత్పురుషాకృతి కేవలమేకం హరకోపానలభస్మ దదృశే దృష్టం నతు పురుషః ఇతి భావః.
అథ సా పునరేవ విహ్వలా వసుధాలింగన ధూసరస్తనీ విలలాప వికీర్ణమూర్ధజా సమదుఃఖామివ కుర్వతీ స్థలీం.
అథేతి అథ భస్మదర్శనానంతరం పునరేవ విహ్వలా విక్లవా వసుధాలింగన ధూసరస్తనీ వసుధాలింగనేన క్షితిలుంఠనేన धूसरौ धूसरवर्णौ स्तनौ कुचौ यस्याः सा तदोक्ता स्वांगाच्च उपसर्जनात् असंयोगोपधात् इति ग्नीस् विकीर्णमूर्धजा विकीर्णाः विक्षिप्ताः मूर्धजाः केशाः यस्याः सा तदोक्ता सा रतिः स्थलीम् वनभूमिम् तत्रत्यान् प्राणिनः इत्यर्थः जानपद कुंड गोण स्थल इत्यादिना ग्नीस् समदुःखाम् स्वतुल्य शोकाम् कुर्वतीव विललाप परिदेवितवती विलापः परिदेवनम् इत्यमरः
उपमानमभूद्विलासिनाम् करणम् यत्तव कान्तिमत्तया तदिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः
उपेति तव यत् करणं गात्रं करणं साधकतमं क्षेत्रगोत्रेन्द्रियेष्वपि इत्यमरः कान्तिमत्तया सौन्दर्येण हेतुना विलासिनां विलसनशीलानां वौ कष लस इत्यादिना घिनुन् प्रत्ययः उपमीयते येन उपमानम् अभूत् तत्करणम् इदम् ईदृशीम् दशाम् अवस्थाम् गतम् भस्मीभूतमित्यर्थः तथापि न विदीर्ये न विदीर्णा भवामि कर्तरि लट् तथा हि स्त्रियः कठिनाः खलु कठिनत्वात् अविदीर्यमाणत्वमित्यर्थः कारणात् कार्यसमर्थनरूपः अर्धान्तरन्यासः धीरसञ्चारिणी दृष्टिर्गतिर्गोवृषभाञ्चिता स्मितपूर्वम् तथालापो विलास इति कीर्तितः इति
क्वनु माम् त्वदधीन जीविताम् विनिकीर्य क्षणभिन्न सौहृदः नलिनीम् क्षतसेतु बन्धनः जलसङ्घात इवासि विद्रुतः
क्वेति हे प्रिय क्षतसेतु बन्धनः भग्नसेतु बन्धनः जलसङ्घातः जलौघः नलिनीमिव जलैकायत्त जीवितामिति शेषः त्वदधीन जीवितां त्वदायत्त प्राणां मां क्वनु विनिकीर्य कुत्र वा निक्षिप्य क्षणभिन्न सौहृदः क्षणत्यक्त सौहार्दः सन् विद्रुतः पलायितोऽसि सेतु सौहृदयोः स्थितहेतुत्वेन साम्यम् सुहृदः भावः सौहृदम् युवादित्वाद् अण् प्रत्ययः हृदयस्य हृत् लेख यद् अण् लासेषु इति हृदादेशः अणि हृद्भावात् न हृद्भगसिन्ध्वन्ते पूर्वपदस्य च इति उभयपदवृद्धिः हृद्भूतस्य अण्विधाने तु उभयपदवृद्धिः स्यात् यथा सुहृदः भावः सौहार्दमिति तदेवाह वामनः सौहृद दौहृदशब्दौ अनणि हृद्भावात् इति
कृतवानसि विप्रियम् न मे प्रतिकूलम् न च ते मया कृतम् किमकारणमेव दर्शनम् विलपन्त्यैरतये न दीयते
कृतेति हे प्रिय त्वम् मे मम विप्रियम् अप्रियम् कृतवान् न असि मया च ते तव प्रतिकूलम् अप्रियम् न कृतम् परस्परजीवितस्य परस्पराधीनत्वात् कुतः परिभवशङ्का इति भावः अकारणम् निष्कारणमेव परस्परापकाररूप कारणाभावे अपि इत्यर्थः क्रियाविशेषणमेतत् विलपन्त्यै त्वद्दर्शनार्थिन्यै अपि इति भावः रतये किं कथं दर्शनं न दीयते क्रियाग्रहणात् चतुर्थी
स्मरसि स्मर मेखला गुणैः उत गोत्र स्खलितेषु बन्धनम् च्युतकेशर दूषिते क्षणानि अवतंसोत्पल ताडनानि वा
स्मरसीति हे स्मर गोत्रस्खलितेषु नाम व्यत्यासेषु गोत्रं नाम्नि अचले कुले इति विश्वः मेखलागुणैः बन्धं स्मरसि उत स्मरसि वा विकल्पे किं किमुत च इत्यमरः च्युतकेशरैः भ्रष्टकिञ्जल्कैः दूषिते ईक्षणे येषु तानि अवतंसोत्पलताडनानि सधूलिक्षेपताडनानीत्यर्थः स्मरसि वा अपकारस्मरणात् इदम् अदर्शनमिति भावः
हृदये वससीति मत्प्रियम् यदवोचस्तदवैमिकैतवम् उपचारपदम् न चेदिदम् त्वमनङ्गः कथमक्षतारतिः
हृदय इति हृदये वससीति स्मरवाक्यानुवादः इत्येवं रूपं मत्प्रियं यदवोचः उक्तवानसि ब्रूयो लुङि वच इति उमागमः तत्कैतवम् अवैमि मिथ्या इति मन्ये इदं वचनम् उपचारपदं परस्य रञ्जनार्थं यदसत्यभाषणं स उपचारः तस्य पदं स्थानम् कैतवस्थानमिति यावत् न चेत् त्वम् अनङ्गः अशरीरः कथं रतिः अक्षता अविनष्टा आश्रयनाशे अपि आश्रितम् अविनष्टमिति विरोधादिति भावः
परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव विधिना जन एष वञ्चितः त्वदधीनं खलु देहिनां सुखम्
परलोकेति परलोकं प्रति नवप्रवासिनः अचिरप्रोषितस्य अनेन अनुगमनकाल अनतिपातः सूच्यते तव पदवीं मार्गम् अहं प्रतिपत्स्ये त्वाम् अनुगमिष्यामीत्यर्थः अतः मे नास्ति विचारः इति भावः किन्तु विधिना दैवेन एषः जनः लोकः वञ्चितः प्रतारितः देहिनां सुखं त्वदधीनं त्वयि अधीनं खलु अधिशब्दस्य शौण्डादित्वात् सप्तमी शौण्डैः इति समासः अध्युत्तरपदात् इति खप्रत्ययः एवम् अन्यत्रापि सुखप्रदाभावे कुतः सुखमिति भावः